एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। सर्वकारेण अद्यतः क्रियान्वयनत्वेन सर्वकारीय कार्यालयेषु शैक्षिक संस्थासु च एकस्मिन् सप्ताहे द्वयोः दिवसयोः शनिश्चरवासरे रविवासरे च सार्वजनिकावकाशस्य प्रदानाय निर्णीतम् वर्तते। सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्य उपविष्टेन मन्त्रिपरिषदः उपवेशेन पेट्रोल तैलेन्धनस्य आपूर्तौ उत्पन्नायाः असजातायाः कारणेन अद्यतः सर्वकारीय कार्यालयेषु शैक्षिक संस्थासु च शनिश्चरवासरे रविवासरे च द्वयोः दिवसयोः अवकाशस्य प्रदानाय निर्णीतम् वर्तते इति सर्वकारस्य प्रवक्ता शिक्षा विज्ञान प्रविधि मन्त्री च सस्मित पोखरेलः असूचयत। मन्त्रिपरिषदः उपवेशस्य निर्णयान् पूर्वे द्युः सार्वजनिकी कुर्वन् सर्वकारस्य प्रवक्ता पोखरेल सर्वकारीय कार्यालयानाम् कार्यालयसमयम् प्रातः नववादनात् सायं पञ्चवादनम् यावत् निर्धारयितुम् च निर्णीतमस्तीति असूचयत। एवमेव मन्त्रिपरिषदः उपवेशेन डिजिटल नेपाल ट्रान्सफर्मेशन इति परियोजनायाः कृते ऐशयिक विकासकोषेण विश्वकोषेण च प्रदीयमानाः 90 मिलियन अमेरिका देशीय डलर मुद्राः ऋणत्वेन स्वीकर्तुम् निर्णीतमस्तीति मन्त्री पोखरेलः अज्ञापयत्। एवमेव सबल समावेशी परियोजनायाः कृते विश्वकोषाद् प्राप्यमाणाः 95 मिलियन अमेरिका देशीय डलर मुद्राः सौविध्यपूर्णस्य ऋणस्य रूपेण स्वीकर्तुम् राष्ट्रिय समाचार समितेः कार्यकार्याध्यक्षेण धर्मेन्द्र झा इत्यनेन प्रदत्तम् त्यागपत्रम् स्वीकर्तुम् च निर्णीतमस्तीति मन्त्री पोखरेलः अज्ञापयत्। मन्त्रिपरिषदः उपवेशेन नेपाल सर्वकारस्य सर्वेषाम् मन्त्रालयानाम् सचिवालयानाम् आयोगानाम् एतदन्तर्गतानाम् संघटनानाम् च व्यवस्थापनाय सर्वेक्षणाय च पूर्व स्वीकृतिम् प्रदातुम् च निर्णीतमस्तीति सर्वकारस्य प्रवक्ता मन्त्री पोखरेलः असूचयत्। अत्रान्तरे नेपाल तैल निगमेन तैलेन्धनस्य व्ययम् प्रति सावधानताम् धर्तुम् सर्वे उपभोक्तारः अनुरुद्धाः वर्तन्ते। पेट्रोलियम् पदार्थस्य आपूर्तेः संकटस्य वर्धनानन्तरम् मन्त्रिपरिषदः ह्यस्तनोपवेशेन अद्यतः क्रियान्वयनत्वेन शनिश्चरवासरे रविवासरे च सार्वजनिकावकाशस्य प्रदानाय विहितस्य निर्णयस्य सन्दर्भे पेट्रोलियम् पदार्थस्य प्रयोगम् न्यूनीकर्तुम् सर्वैः सहयोगो विधातव्य इति निगमस्य प्रवक्ता मनोज ठाकुरः प्रावोचत। निगमस्य तथ्याङ्कानाम् अनुसारेण सम्प्रति प्रतिदिनम् आराष्ट्रम् 25 लक्ष लिटर परिमितम् पेट्रोल तैलम् 50 लक्ष लिटर परिमितम् डीजल तैलम् च व्ययीक्रियमाणे स्तः। प्रतिनिधि सभाया सभामुखपदे राष्ट्रिय स्वतन्त्र दलस्य सांसद डोलप्रसाद अरियालः निर्विरोधम् निर्वाचितोऽस्ति। प्रतिनिधि सभाया ह्यस्तनोपवेशे सांसदम् अरियालम् प्रतिनिधि सभाया सभामुखपदे निर्वाचयितुम् रासपा दलस्य सभापतिना रविलामी छानेविदेन प्रस्तावः प्रस्तुतः आसीत्। प्रस्तावोऽसौ अर्थमन्त्रिणा सांसदेन स्वर्णिम वाग्ले इत्यनेन, विधिन्याय संसदीय विषय मन्त्रिणा सोविता गौतम इत्यनेन, भौतिक पूर्वाधार यातायात नगरीय विकास मन्त्रिणा सुनील लम्सालेन च समर्थितः आसीत्। प्रस्तावस्य समर्थनम् कुर्वद्भिः यतैः एतत्पूर्वमपि अरियालेन संसदीय महत्वपूर्णा भूमिका निर्व्यूढासीत् इति स्मृत्वा आगामि दिनेष्वपि प्रतिनिधिसभायाः सभामुखपदस्य दायित्वपूर्णा भूमिका निर्वक्ष्यते इति विश्वासः अभिव्यक्तः आसीत्। उपवेश्य प्रतिनिधिसभायाः ज्येष्ठ सदस्येन अर्जुन नरसिंह केसी इत्यनेन पूर्वेद्यु प्रतिनिधिसभाया सभामुखपदे सांसद डोलप्रसाद अरियालः निर्विरोधम् निर्वाचित इति घोषणाम् कृत्वा तस्मै वर्धापनानि प्रदत्तानि आसन्। प्रतिनिधिसभायाः अपरोपवेशाद्य दिवा एकवादने वसति। अत्रान्तरे ह्य एव शीतल निवासवर्तिनी राष्ट्रपति भवने आयोजिते विशेष समारोहे राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षम् प्रतिनिधिसभायाः नवनिर्वाचितेन सभामुखेन डोलप्रसाद अरियालेन पदगोपनीयतयोः शपथ गृहीतोऽस्ति। नवनिर्वाचितेन सभामुखेन डोलप्रसाद आर्यालेन सदनं प्रतिपक्षस्य स्थिति मान्यतामाधृत्य आत्मना भूमिका निर्वक्ष्यते इति प्रतिबद्धता व्यक्तास्ति। सीमाप्रसादवर्तिनी कार्यकक्षे ह्यः पदभार ग्रहणस्य पश्चात् सञ्चारकर्मिभिः सह संक्षिप्तं प्रतिक्रियां ददत्त। सभामुख अर्यालः सदने प्रतिपक्षेण उत्थापितेभ्यः विषयेभ्यः यथोचितं स्थानं प्रदातुम् आत्मना सर्वदैव भूमिका निर्वक्ष्यते इति प्रतिबद्धतां व्यक्तवान्। सभामुख अर्याल सम्प्रति सर्वाधिक सबल प्रतिपक्ष नेपाली जनता एव वर्तते इत्यतः जनताया विमतस्य अनुसारेण सदनेन कार्यं करिष्यते इति उदैरयत्। राष्ट्रपतिना रामचन्द्र पौडेलेन नेपालस्य महान्यायाधिपदे अधिवक्ता डाक्टर नारायण दत्त कणेलः नियुक्तोऽस्ति। राष्ट्रपतिना पौडेलेन प्रधानमन्त्रिणः बालेन्द्र शाहस्य परामर्शेन नेपालस्य संविधानस्य सप्तपञ्चाशदुत्तरैकशततम धारायाः द्वितीयोपधारायाः अनुसारेण डाक्टर कणेलः महान्यायाधिवक्तृपदे नियुक्तोऽस्तीति राष्ट्रपतेः कार्यालयस्य प्रवक्त्रा रितेश कुमार साक्येन प्रकाशितायां विज्ञप्तौ उल्लिखितं वर्तते। अत्रान्तरे महान्यायाधिवक्त्रा कणेलेन ह्यैव पदभारः निर्व्यूढोऽस्ति। गुल्मी दरबार ग्रामपालिकायाः चतुर्थवडा क्षेत्रस्य मिसुकास्थाने आन्तरमार्गे दुरापन्नायां जीपयानस्य दुर्घटनायां जनद्वयं मृतम् अस्ति चेत् एकादश जनाः आताः वर्तन्ते। वीरवासस्थानात् मिसुकास्थानं प्रति प्रस्थीयमानस्य जीपयानस्य गतिनियन्त्रणोपकरणस्य विफलतायाः पश्चात् दुर्घटनायाम् एतावन्मात्रायां जनाः मृता आहताश्च वर्तन्ते। मृतकयोः गुल्मी दरबार ग्रामपालिकाया चतुर्थवडा क्षेत्रस्य पञ्चत्रिंशद् वर्षीया कृष्ण ढेगा चत्वारिंशद् वर्षीया मीना सनामी चस्ता इति गुल्मी जनपदस्य प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षक गंगा बहादुर सारू असूचयत। आहतानां जनानां श्रृंगा प्राथमिक स्वास्थ्य केन्द्रे उपचार जायमानोऽस्ति। राष्ट्रिय सभाया उपाध्यक्ष पदे नेकपा एमाले दलस्य सांसदेन लीला कुमारी भण्डारिणा प्रत्याशिता प्रस्तुता अस्ति। संघीय संसद सचिवालयस्य कार्यतालिकाया अनुसारेण ह्यः सांसद भण्डारी सभाया उपाध्यक्ष पदे निर्वाचनीया इति प्रस्तावस्य सूचना पञ्जीकारिता अस्ति। भण्डारिणः प्रस्तावके एमाले दलस्य प्रेम प्रसाद डंगालः अस्ति चेत् समर्थकेषु नेपाली कांग्रेस दलस्य कृष्ण बहादुर रोकाया, नेकपा दलस्य मदन कुमारी शाह, जनता समाजवादी दलस्य पूजा चौधरी च वर्तन्ते। इति समाचाराः।